एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिः विद्यादेवी भण्डारी सभ्यस्य लैंगिक समानता युक्तस्य च समाजस्य निर्माणाय विशेष प्रयत्नेन अग्रेसराः भवितुम् समाजस्य सर्वेषाम् पक्षाणाम् ध्यानाकर्षणम् विदधाति। महिलानां सुरक्षा सम्मानः वृत्त्युपार्जनम् च समृद्ध नेपालस्य आधारः इति राष्ट्रिय समाघोषेण ह्य महिला बालबालिका ज्येष्ठ नागरिक मन्त्रालयेन एकादशाधिक शततमस्य अन्तर्राष्ट्रिय महिला दिवसस्य अवसरे आयोजिते कार्यक्रमे राष्ट्रपतिः भण्डारी अवोचत् आर्थिक समानताम् विना सामाजिक सांस्कृतिक विभेदस्य अन्तः न सम्भवति। राष्ट्रपतिः भण्डारी अगदत् महिलानाम् अधिकाराणाम् महिला हिंसायाः अन्तस्य च कृते राज्यस्य अङ्गानि आधिक्येन सर्जनात्मकानि विधातव्यानि। राष्ट्रपतिः भण्डारी राष्ट्रेण अधिगतासु उपलब्धिषु स्थानीयस्तरात् क्रियान्वितासु सतिषु समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षा पूर्णा भविष्यतीति विश्वासम् अभिव्यनक। समारोहे प्रधानमन्त्री केपी शर्मा ओली महिलासु विद्यमानयोः असमानतायाः अन्यायस्य च अन्ताय बलम् अददात्। प्रधानमन्त्री ओली अवासत राज्यस्य विभिन्नेषु स्तरेषु क्षेत्रेषु च प्रतिशतम् एकचत्वारिंशतो महिलानां सहभागिता स्वल्प समये राष्ट्रेण अधिगतासु उपलब्धिषु प्रशंसा योग्या वर्तते। प्रधानमन्त्री ओली सामाजिक न्यायं समानताम् च संस्थापयितुम् सर्वकारः प्रतिबद्धोऽस्तीति चर्चयन् अवोचत् राष्ट्रे महिलानाम् पक्षे स्वरम् मुखरम् कृतवतीनाम् योगमायानाम् इतिहासः अन्तर्राष्ट्रियतिहासात् न्यूनो नास्ति। पश्चात्तनस्य राजनैतिक घटनाक्रमस्य विषये प्रधानमन्त्री ओली आत्मनो दल निर्णयनस्य विषयः न्यायालयेन स्पष्टीकृतोऽस्तीति अब्रवीत्। प्रधानमन्त्री ओली संसदि समाघोषोच्चारणम् अशोभनीयम् अस्तीति तर्केन अकथयत् सम्मानितायम् संसदि राष्ट्रस्य विकासस्य विषयाः विमर्शनीयाः। समारोहे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री जुली कुमारी महतो राष्ट्रस्य सबलार्थिक विकासाय महिलानां सर्वाङ्गीण विकासः अपरिहार्योऽस्तीति चर्चयन्ती अगदत् एतदर्थं सर्वाभिः राष्ट्रियाभिः अन्तर्राष्ट्रियाभिश्च संघ संस्थाभिः सहकार्यं विधीयते। कार्यक्रमे प्रतिनिधिसभाया महिला सामाजिक समितेः सभापतिः निरुदेवी पालश्च विचारम् प्राकटयत। समारोहे राष्ट्रपतिः विद्यादेवी भण्डारी एतद् विक्रम वर्षीयम् लैंगिक समानताधिनियमम् सार्वजनिक कुर्वती एसिड ज्वलनशील द्रवेण आक्रान्ताम् किशोरीम् मुस्कान खातुन इत्यभिधेयाम् एतस्याः क्षमता साहसयोः मूल्यांकनम् कृत्वा उत्तरीयेण प्रमाणपत्रेण च सममानयत। प्रधानमन्त्री केपी शर्मा ओली कथयति स्वदेश्योत्पादनानां प्रवर्धनेन देशः समृद्धः कारयितुं शक्यते। नेपालोद्योग परिसंघेन आयोजितस्य स्वदेश्योत्पादनाभियानस्य ह्यः काष्ठमण्डपे शुभारम्भ विदधानः प्रधानमन्त्री ओली अगदत् अभियानमेतत् सफलीकर्तुं देशे पूर्वाधाराः निर्मिताः सन्ति कतिपयाश्च निर्माणस्य अवस्थायां वर्तन्ते इत्यतः नेपालेन स्वदेश्योत्पादनेषु तीव्रगतिः अवाप्स्यते। प्रधानमन्त्री ओली अवासत नेपाले उद्योग क्षेत्रस्य विस्तारात् उत्पादनेन सहैव वृत्त्युपार्जनानि च सृज्यन्ते इत्यतः औद्योगिक क्षेत्रस्य विकासः सर्वकारस्य विशेष प्राथमिकतायाम् अस्ति। परिचय पत्रविहीनेभ्यः ज्येष्ठ नागरिकेभ्यः अपि टीकाकरणं विधातुं स्वास्थ्य जनसंख्या मन्त्रालयेन अनुरुद्धं वर्तते। मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः परिचय पत्रविहीनान् ज्येष्ठ नागरिकान् टीकाकरण केन्द्र वर्तिनो वडा कार्यालयस्य परामर्शे टीकाकरणं ग्रहीतुम् अनुरुणात। अत्रान्तरे नेपाले ह्य अतिरिक्तेषु 89 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्य अतिरिक्ता 141 जना कोरोना विषाणो संक्रमणात् मुक्ता सन्ति। कोरोना संक्रमणेन ह्य अतिरिक्ता जनैको मृत। एतदनु नेपाले ह्यस्तनावधि संक्रमणेन मृतानां जनानां समग्र संख्या 11,000+ प्राप्येति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। बांके जनपदस्य नरैनापुर ग्रामपालिकाया सुइया ग्रामे अग्निदायेन 25 गृहाणि विनष्टानि वर्तन्ते। नरैनापुरस्य प्रथमवडा क्षेत्रस्य सुइया ग्रामे ह्य दुरापन्नेन अग्निदायेन कापि मानवीय क्षति सम्भूता नास्ति परं कोटिशो रूप्यकाणां धनवस्तूनि दग्ध्वा विनष्टानि सन्तीति प्ररिणा ज्ञापितम् अस्ति। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री भानुभक्त ढकाला कथयति नेपाल कम्युनिष्ट पार्टी एमाले दलम सर्वान समावेश अग्रे प्रवर्धते पुनः स्थापितस्य नेकपा एमाले दलस्य मोरङ जनपदीय दल कार्यालयम् ह्यः शुभारम्भ माणः मन्त्री ढकालः अवदत् वर्तमान सर्वकारः विश्वासस्य मतम् अवाप्य सञ्चलिष्यति अन्यथा स्थानीय संघीय निर्वाचनेन नवीन जनादेश प्राप्तये गन्तुम् पूर्व कार्यम् विधास्यति। वन वातावरण मन्त्री प्रेमबहादुर आले भाषते आगामिनः आर्थिक वर्षस्य आयव्यये नीति कार्यक्रमेषु च सर्वकारेण नैज वनस्य प्रवर्धनाय विशेषः कार्यक्रमः आनिष्यन्ते अनिश्यते। पारिवारिक नैज वन संघ नेपालस्य सप्तम स्थापना दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री आले अवोचत् इतर वनोद्यमिवत् नैज वन संघोऽपि अस्तीति हेतोः आगामिनः वर्षस्य आयव्ययके नैज क्षेत्रस्य वनस्य हित विकासाभ्याम् सहयोग प्रापणस्य कार्यक्रमाः आनिष्यन्ते। सर्वोच्च न्यायालयेन नेपाल कम्युनिष्ट पार्टी एमाले दलस्य नेकपा माओवादी केन्द्रस्य च एकतायाः प्राक्तनावस्थायामेव प्रापणमनु दल कार्यालयौ अपि पूर्वावस्थायामेव प्रत्यावर्तेते। एमाले दलस्य केन्द्रीय कार्यालयः धुम्बाराय स्थाने माओवादी केन्द्रस्य कार्यालयश्च पूर्ववत् पेरिस्टाण स्थाने एव सञ्चलतः। धुम्बाराय वर्तिनः एमाले दलीय कार्यालयस्य नाम संकेत पट्टिका च अद्य परिवर्तेते इति कार्यालय सचिव ईश्वरी रिजाल अज्ञापयत। नेपाल कम्युनिष्ट पार्टी दाहाल नेपाल समूह नेकपा दलस्य एकीकरणम् निरस्तीकृत्य एमाले नेकपा माओवादी केन्द्रयो पूर्वावस्थायाम् प्रापणस्य सर्वोच्च न्यायालयस्य निर्णयः अनुचितोऽस्ति इति निष्कर्षे प्राप्तोऽस्ति इति समाचारः।